एष रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। प्रधानमन्त्री लुम्बिनी बौद्ध विश्वविद्यालयस्य कुलपतिश्च शेरबहादुर देउवा वदति शिक्षायं विकासे संयोजितायं सत्यायं शिक्षायं राज्येन विहितस्य निवेशनस्य प्रतिफलं सुनिश्चेतुं शक्यते। लुम्बिनी बौद्ध विश्वविद्यालयस्य त्रयोदश्यां सभायां गतदिने प्रधानमन्त्री देउवा अवासत राज्येन शिक्षा प्रणाल्यां विहितेन निवेशनेन अर्जिता उपलब्धि देशस्य भावि गन्तव्यस्य निर्धारणाय विपुलं महत्त्वं विवर्ति। प्रधानमन्त्री देउवा लुम्बिन्या बौद्ध दर्शनस्य शिक्षायाश्च माध्यमेन सर्वकारण अंगीकृताय सबल विकास नित्ये सहाय सिद्ध्या प्राज्ञ क्रियाकलापानाम् अग्रे वर्धनाय बौद्ध विश्वविद्यालयम् अन्तरुणत। प्रधानमन्त्री देउवा विश्वविद्यालय स्थापनाय मर्मोद्देश्यो मनन पूर्वकम् अग्रे वर्धनात्मक योजनाय निर्माणार्थम् उपवेशो मार्गदर्शनम् विधास्यतीति च अपेक्षत। नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादिन संसदी प्रस्तुताय एमसीसी संविधाय विपक्षे मतदानाय निर्णीतं वर्तते। एकीकृत समाजवादिन ह्य उपविष्टेन सचिवालयस्य उपवेशेन एमसीसी संविधायाः विपक्षे स्थातुं विपक्षे उपमतदानं कर्तुं च निर्णीतमिति दलस्य प्रवक्ता जगन्नाथ खतिवडा अज्ञापयत्। एमसीसी संविधाय कारणेन गठबन्धने विभाजनस्य सम्भावना नास्तीति चर्चन प्रवक्ता खतिवडा एमसीसी संविधाय विपक्षे मतदानाय नेपाली कांग्रेस दलमपि अनुरोधं निर्णीतमिति अज्ञापयत। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल कथयति एमसीसी संविधाय विषय मार्गात सदने प्रविष्टो स्थिति हेतु संसदं प्रति राष्ट्रस्य ध्यानं केन्द्रितं वर्तते। जनता समाजवादी दलस्य अध्यक्षेण उपेन्द्र यादवेन सह ह्यः सम्पन्नस्य विमर्शनस्य अनन्तरं संचारकर्मी सह नेता पौडेल अवदत् एमसीसी संविधाय जटिलताय देशस्य सामूहिक परिस्थितिस्य विषयो विभिन्न कोणेभ्य विमृष्टम्। एमसीसी संविधाय राष्ट्रेण सह संयोजित महत्वपूर्ण विषय वर्तते इत्यतः संसदि प्रतिनिधित्वं कुर्वतां दलानां सर्वे नेतृभिः आत्मना विमर्शनं विधीयमानमस्तीति नेता पौडेल समस्पष्टयत्। प्रमुख प्रतिपक्षण नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति सत्ता गठबन्धनस्य नेतृभि देशं प्रति दायित्ववाहकैर्भाव्यम्। काष्ठमण्डपस्थिते कालुपाणे विधस्य समाधिस्थले ह्य आयोजितं कार्यक्रम सम्बोधयन् अध्यक्ष ओली संसदि एमसीसी संविधाय प्रस्तुते अनन्तरं इमां विरूद्ध विहितं आन्दोलनं लक्ष्यीकृत्य विकास निर्माणयो विध्वंसक जन क्रान्तिकारी भवितुं न शक्नुतीति अतर्कयत। अध्यक्ष ओली पूर्वजै दर्शित वीरताय सन्मार्ग अनुसरणीय इति चर्चयन् आत्मभि इतिहासस्य यत्किमपि गौरवं विलोपनात् संरक्षति इत्यभासत। स्थानीय स्तरणां निर्वाचने भागं ग्रहीतुं ह्यस्तनावधि दशभिः राजनीतिक दलै दलस्य पञ्जीकरणाय निवेदनानि प्रदत्तानि सन्तीति निर्वाचनायोगेन ज्ञापितं वर्तते। आयोगेन दलानां पञ्जीकरणाय अस्यैव फाल्गुन मासस्य पञ्चदशं दिवसं यावत् समयसीमा निर्धारिता वर्तते इत्यतः दलै स्वदलानि पञ्जीकर्तुं निवेदनानि प्रदत्तानि सन्तीति ह्यः आयोजिते पत्रकार सम्मेलने आयोगस्य सह प्रवक्ता सूर्य प्रसाद अर्यालः अज्ञापयत्। ह्यस्तनावधि पञ्जीकृतानां राजनीतिक दलानां संख्या 90% वर्तते। निर्वाचन आयोगेन आगामिन स्थानीय स्तराणां निर्वाचनस्य कृते 98 अब्जानां 95 कोटीनां च रूप्यकाणां आयव्ययकं स्वीकृतं वर्तते। आयोगस्य हस्तनोपवेशन विगतकालिकं निर्वाचन व्ययं न्यूनीकृत्य मितव्यय निर्वाचन सम्पादनस्य प्रतिबद्धता सहितं 98 अब्जानां 95 कोटीनां 29 लक्षाणां 1,000 चतुष्टयश्च रूप्यकाणां आयव्ययकं स्वीकृतं वर्तते। मतदातृ शिक्षां यातायात साधनानां क्रयणे च विधीयमान व्ययः कर्मचारिभ्य प्रतिमानं मासिक भरणं च निवारितस्थः इति प्रमुख निर्वाचनयुक्तः दिनेश कुमार थपलिया अज्ञापयत। विगतकालिक निर्वाचनस्य तुलनायां प्रतिशतम् आसन्न 40% अंकै वेतनं भरणं च वृद्धिभूते स्तः 95 वर्षाणाम् अवधौ आपणमूल्यं प्रतिशतम् आसन्न 40% अंकै वर्धितमस्ति। तदानीन्तन मतदातृ संख्यायाम् आसन्नाष्ट 40% लक्षाणि मतदातार वर्धिता 100 चतुष्टयश्च मतदानस्थलानां 1,000 मतदान केन्द्राणां च वर्धनस्य च अवस्था च वर्तते तथापि आयोगेन न्यूनव्यय निर्वाचन सम्पादनस्य प्रतिबद्धता व्यक्त स्थिति प्रमुखायुक्त थपलिया ज्ञापितवान्। आयोगेन प्राप्तस्य वित्तस्य विपुल अंश अर्थात् प्रतिशतम् आसन्न पञ्चाशीति व्यय जनपद निर्वाचने प्रदेश निर्वाचने निर्वाचनाधिकृतस्य कार्यालये च व्ययी क्रियते। आयोगेन व्ययस्य न्यूनीकरण प्रति ध्यानं प्रदत्ता राजनीतिक दलानि प्रत्याशिनस्य व्ययसाध्यम् आडम्बरपूर्णञ्च निर्वाचन प्रति न प्रवर्तयितुम् अनुरुद्धा सन्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा आईसीसी T20 विश्वकप क्रिकेट चयन प्रतियोगिताया उपान्तिम प्रतिस्पर्धायां प्राप्ताया नेपाली क्रिकेट क्रीडाका समूहाय वर्धापनं प्रदत्तं वर्तते। राष्ट्रपतिना भण्डारिणा ओमानदेशे सञ्चाल्यमानायां प्रतियोगितायां उपान्तिम प्रतिस्पर्धायां प्राप्ति अनन्तरं समूहस्य क्रीडकेभ्य प्रशिक्षकेभ्य पदाधिकारीभ्यश्च वर्धापनं ज्ञापितं वर्तते। ओमानदेशस्य मस्कट स्थानवर्तिन्यां रंगशालायां ह्यः सम्पन्नायां प्रतिस्पर्धायां नेपालेन क्यानाडा देश अष्टजनानाम् अन्तरेण पराजितः अभवत्। एवमेव प्रधानमन्त्रिणा शेरबहादुर देउवा विधेनापि क्रिकेट क्रीडक समूहाय वर्धापनं ज्ञापितं वर्तते। उपान्तिम प्रतिस्पर्धायाम् अद्य संयुक्त अरब इमिरेट्स देशेन सह नेपाली क्रिकेट क्रीडक समूह क्रीडति। प्रधानमन्त्रिणा देउवा विधेन अद्य आयोज्यमानायाम् उपान्तिम प्रतिस्पर्धायामपि विजयं प्राप्य नेपालं विश्वकप क्रीडायां प्रचयितुं क्रीडक समूह सफलो भविष्यति इति शुभेच्छया सकल समूहाय शुभकामना व्यक्ता वर्तते। उपराष्ट्रपति नन्दबहादुर पुन वदति भाषा प्रत्येकं राष्ट्रस्य समुदायस्य च परिचयो वर्तते। अन्तर्राष्ट्रिय मातृभाषा दिवसस्य उपलक्ष्ये नेपाल प्रज्ञा प्रतिष्ठानेन काष्ठमण्डपस्य संयुक्त राष्ट्र संघीय शैक्षिक वैज्ञानिक सांस्कृतिक संगठनेन च संयुक्त रूपेण ह्य आयोजिते मातृभाषा राष्ट्रिय कविता महोत्सव कार्यक्रमे उपराष्ट्रपति पुन अवदत् ऐतिहासिक कार्याणां लेखनं भाषायां माध्यमेन भवति इत्यतः भाषाणां विकासेन विना राष्ट्र विकासस्य सम्भावना न भवति। नेकपा माओवादी केन्द्रेण सकल दलपंक्तिः स्थानीय स्तराणां निर्वाचनस्य पूर्वकार्याय सन्नद्धा भवितुं निर्दिष्टा वर्तते। अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन परिपत्रस्य माध्यमेन स्थानीय स्तराणां निर्वाचनस्य प्रक्रियायां सन्नद्धतायै दल संगठनस्य क्रियाशीलतायै च निर्दिष्टं वर्तते। अध्यक्षेण प्रचण्डेन केन्द्रीय सदस्यानां प्रदेश पदाधिकारिणां वा सहभागितायां प्रदेशानां उपवेशं तत्कालं आयोजयितुं जनपद समन्वय समिति उपवेशं परश्व फाल्गुनस्य द्वादशं दिवसं यावत् आयोज्य आवश्यकं सांगठनिक कार्यं कर्तुं च निर्दिष्टमस्ति। बैतडी जनपदस्य पाटन नगरपालिकाया तृतीयवडा क्षेत्रवर्तिनी झालीमाली स्थाने ह्य टिपरयानं दुर्घटितं स चत्वारो जना अम्रियन्त। पाटन नगरपालिकाया तृतीयवडा क्षेत्र स्थितस्य गौरी शंकर पोखरी वर्तिन सिगास माध्यमिक विद्यालयस्य विद्यार्थिन निरुह्य एतस्यैव वडा क्षेत्रस्य धुरा स्थानाय काष्ठ वहनार्थं प्रस्थानस्य क्रमे तत् टिपरयानं दुर्घटितम् आसीत्। टिपरयानं प्रत्यावर्तनस्य क्रमे मार्गत आसन्न 102 मीटर मिताधः पतितम् आसीत्। इति समाचारः।